इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका ऋचा झा। अमेरिका देशस्य राष्ट्रपतिः डोनाल्ड ट्रम्पः उक्तवान् यत् यदि स्ट्रेट ऑफ होर्मोज इति जलसन्धि द्वारा नौवहन यातायातस्य अनुमतिः प्रदीयते तर्हि अमेरिका ईरान देशयोः मध्ये सप्ताहद्वयं यावत् प्रस्तावितस्य युद्धविरामस्य कृते असौ सहमतिं ददाति। इतः प्राक् ट्रम्पः ईरानं संचेतितवान् यत् यदि तेहरान नगरं तस्य याचनाः न स्वीकरोति तर्हि असौ होर्मुज जलसन्धेः पुनरुद्घाटनं समेत्य सेतवः विद्युत्केन्द्राणि सदृशानि महत्वपूर्ण सौकर्याणि लक्ष्यीकुर्यादिति। तत्रैव ईरान देशस्य विदेशमन्त्री अब्बास अराघची घोषणां कृतवान् यत् यदि ईरान देशस्य विरुद्धम् आक्रमणानि स्थगिताः भविष्यन्ति तर्ह्येव ईरान देशः युद्धविरामाय स्वसम्मतिं प्रदास्यति। ईरान देशे द्रुतगत्या परिवर्तित स्थितिं दृष्ट्वा विदेशमन्त्रालयेन भारतीय नागरिकेभ्यः आवागमनं परिहर्तुं निर्देशः प्रदत्तः। अस्मिन् निर्देशे वर्णितमस्ति यत् ईरान देशस्य अन्तः उतवा सीमा पारं करणार्थं कामपि यात्रां तेहरान नगरे भारतीय दूतावासेन सह निकट समन्वयेन स्पष्ट मार्गदर्शनेन च सहैव करणीयमिति। तेहरान नगरे भारतीय दूतावासेन नागरिकेभ्यः आग्रहः कृतः यत् अग्रिम अष्टचत्वारिंशत् होराः यावत् ते यत्र सन्ति तत्रैव वसन्तु इति। असम केरलम पुडुचेरी इत्येतेषु नगरेषु विधानसभा निर्वाचनाय प्रचाराभियानं नैकासां दिनानां व्यस्त राजनीतिक कार्यक्रमाणाम् अनन्तरं ह्यः सायं समाप्तम्। असमस्य सर्वेभ्यः षड्विंशत्यधिकैक विधानसभासनेभ्यः केरलम राज्यस्य चत्वारिंशदधिकैकासनेभ्यः सहैव पुदुचेरी नगरस्य त्रिंशत् आसनेभ्यः मतदानं श्वः एकस्मिन् एव चरणे भविष्यति। ह्यः निर्वाचन प्रचारस्य अन्तिमासु होरासु राजनैतिक दलानां प्रमुखाः नेतारः मतदातृभिः सह सम्पर्क साधयितुं स्वीय समर्थनस्य आधारं सुदृढीकर्तुं च समन्वित प्रयासान् अकुर्वन्। पश्चिम बंगालस्य मुख्य निर्वाचनाधिकारी राज्यस्य कारागारेषु परिष्कारगृहेषु च कठोर निरीक्षणाय आदेशं प्रदत्तवान् येन कारागार परिसरात् निर्वाचन प्रक्रियायां कोऽपि हस्तक्षेपः न भवेदिति। प्रशासनेन राज्येषु प्रवासी श्रमिकेभ्यः वितरणाय उपलभ्यमानस्य 5 किलोग्राम मितस्य मुक्त व्यापारस्य एलपीजी सिलेंडर इत्यस्य दैनिक वितरणं द्विगुणितं कर्तुं निर्णयः कृतः। ह्यः नवदिल्ल्यां पश्चिमैशियायाः वर्तमानस्थितौ अन्तामन्त्रालयीयं विवरणं सम्बोधयन्ती पेट्रोलियम प्राकृतिक वातीन्धन मन्त्रालयस्य संयुक्त सचिवा सुजाता शर्मा अवदत् यत् एकस्मिन् एव दिने प्रायः 5 किलोग्राम सिलेंडर इत्यस्य विक्रयणं प्रायः 1 लक्षं यावत् वर्धितम्, यत् फरवरी मासे प्रायः 77,000 सिलेंडर इति एव आसीत्।
पेट्रोल डीजल एलपीजी पीएनजी की सप्लाई सामान्य है। एलपीजी डिस्ट्रीब्यूटरशिप्स पर कोई ड्राई आउट रिपोर्टेड नहीं है। इसी तरह सारे पेट्रोल पंप भी नॉर्मल ऑपरेट कर रहे हैं। एलपीजी सिलेंडर्स की डिलीवरी नॉर्मल है। ऑनलाइन बुकिंग लगभग 96% है और डीएसी या ओटीपी बेस्ड डिलीवरी लगभग 90% तक है।
आईपीएल इति क्रिकेट प्रतिस्पर्धायां ह्यः रात्रौ गुवाहाट्यां राजस्थान रॉयल्स दलेन मुंबई इंडियंस दलं 27 धावनांकैः पराजितम् इति वार्ताः।